धनुष्मा चतुर्भुज सूर्यसुत प्रशांत सदास्तु मह्यं वरद प्रसन्न शनिश्चराय शांताय सर्वाभीष्ट प्रदायिने
द्वादशाष्टमजन्मक्षे द्वितीयस्थानैव च त्वत्सञ्चारोद्भवादोषाः सर्वे नश्यन्तु मे प्रभो पुत्राय शनैश्चराय तमालनीलाम्बुजमेचकाय श्रुत्वा स्तुतिं मे भव कामदस्त्वं फलप्रदो मे भव सूर्यपुत्र सरस्वतीं देवीं गणाध्यक्षं सुपूजितं राजा दशरथस्तोत्रं सौरहृदमथाकरोत् नमः कृष्णाय नीलाय शिखिकण्ठ निभाय च नमो नीलमयूखाय नीलोत्पलनिभाय च नमो निर्मांसदेहाय दीर्घश्रुतिजटाय च नमो विशालनेत्राय शुष्कोदर भयानक शुष्कोदर भयानक
Peace.
गते वापि जन्मस्थान गते अपि वा यः पुमान् श्रद्धया युक्तः शुचिः स्नात्वा समाहितः शमीपत्र्यै समभ्यर्च्य प्रतिमां लोहजां मम माशोदनं तिलैर्मिश्रं दद्यालोहं तु दक्षिणां कृष्णाङ्गां महिषीं वस्त्रं मामुद्दिश्य द्विजातये मद्दिने तु विशेषेण स्तोत्रेणानेन पूजयेत् पूजयित्वा जपेत् स्तोत्रं पूजयित्वा चैव कृताञ्जलिः तस्य पीडां न चैवाहं करिष्यामि कदाचन
गोचरे जन्मलग्ने च दशास्वन्तर्दशासु च रक्षामि सततं तं हि पीडाभ्योऽन्यग्रहस्य च अनेनैव प्रकारेण पीडामुक्तं जगत् भवेत् अनेनैव प्रकारेण पीडामुक्तं जगत् भवेत् पीडामुक्तं जगत् भवेत् पीडामुक्तं